संस्कृतभाषानिरतेभ्यः प्रियेभ्यः संस्कृतसाप्ताहिकी श्रोतृभ्यः नमस्कारः। अहमस्मि कार्यक्रमस्य उद्घोषकः पुरुषोत्तमशर्मा। सर्वादौ सुभाषितवचनमेकं शृण्मः। मनःशुद्धिविषयकं सुभाषितं प्रस्तौति दीपकसोलङ्की।
चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत्, यच्चित्तस्तन्मयो भवति गुह्यमेतत् सनातनम्। अर्थात मनुष्य का चित्त अपने आप में एक संसार है, अतः इसे प्रयत्न पूर्वक शुद्ध रखना चाहिए, क्योंकि जिसका जैसा चित्त होता है वह मनुष्य वैसा ही बन जाता है।
श्रोतारः, भगवत कृपा प्राप्तये साधुभिः अनेके मार्गाः अन्वेषिताः। तेषु मार्गेषु अन्यतमास्ति देवतास्तुतिः। ताम् एकां स्तुतिं स्वीकृत्य अत्र उपस्थितः विद्यते नरेन्द्रदत्तसेमवालः।
ईश गिरीश नरेश परेश महेश बिलेश यभूषण भो सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम्। उमया दिव्य सुमंगल विग्रहया लिंगित वामांग विभो सांब सदाशिव शंभो शंकर शरणमे तव चरणयुगम्। पूरी कुरु मामयमनाथं दूरी कुरु मे दुरितं भो सांब सदाशिव शंभो शंकर शरणमे तव चरणयुगम्। शिवाय नमः शिवाय नमः शिवाय नमः ॐ नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः ॐ नमः शिवाय। शिवर मानस हंस चराचर जनन स्थिति लय कारण भो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम्। अंतःकरण विशुद्धिं भक्तिं च त्वयि सतिं प्रदेहि विभो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम्। करुणा वरुणालय मैतास उदास स्तवोचितो न विभो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम्। शिवाय नमः शिवाय नमः शिवाय नमः ॐ नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः ॐ नमः शिवाय।
प्रियाः श्रोतारः, श्रुता अस्माभिः सुमधुरा शिवस्तुतिः। अधुना देश विदेशयोः समसामयिक वार्ताः, अन्ताराष्ट्रिय वार्ताः, क्रीडा वार्ताः च समादाय आगच्छति अस्मदीया सहयोगिनी मुदिता।
गुरुवासरे गुजरातस्य अहमदाबाद विमानपत्तनस्य समीपं मेघानी नगरक्षेत्रे लंडन नगरं प्रति गच्छत् एयर इंडिया यात्री विमानं दुर्घटनाग्रस्तम् अभवत्। दुर्घटनायां 250 जनाः मृत्युम् उपगताः। केन्द्रे एनडीए प्रशासनस्य 11 वर्षपूर्तौ प्रधानमन्त्रिणा मोदिना सबलं प्रोक्तं यत् सबका साथ सबका विकास सबका विश्वास सबका प्रयास इत्येतादृशैः मार्गदर्शक सिद्धान्तैः केन्द्रेण पथ प्रदर्शक परिष्काराः विहिताः। सामाजिक अन्तर्जालीय सन्देशे श्रीमोदिना कथितं यत् केन्द्रेण आर्थिक विकासादारभ्य सामाजिकोत्थानं यावत् जनकेन्द्रित सर्वाङ्गीण प्रगतये ध्यानं आकर्षितम्। केन्द्रीय मंत्री मंडलेन रेल मंत्रालयस्य द्वे परियोजने अनुमोदिते। एतयोः परियोजनयोः कुल व्ययः 75,400 कोटि रूप्यकाणि वर्तते। अनयोः परियोजनयोः अंतर्गतं कोडरमा बरकाकाना अथ बल्लारी चिकजाजुर रेल मार्गयोः डबलिंग अर्थात द्विविधीकरणं वर्तते। प्रतिवर्षं जून मासस्य 21 दिनांके अन्ताराष्ट्रिय योग दिवसः आमान्यते। अस्मिन् क्रमे मंगलवासरे नवदिल्ल्यां आकाशवाण्याः रंगभवने कार्यस्थल पर योग इति विषये कार्यशाला आयोजिता। वाणिज्य उद्योग मंत्री पीयूष गोयलः आर्थिक व्यापार सहभागितां सुदृढीकर्तुं स्विट्जरलैंड स्वीडन देशयोः यात्राम् अकरोत्। सः द्विपक्षीयव्यापारं निवेशं च वर्धयितुं स्विट्जरलैंड देशे वैश्विक मुख्य कार्यकारी पदाधिकारिभिः उद्योग नेतृभिः च साकम् अमिलत्। स्वीडन देशे आर्थिक औद्योगिक वैज्ञानिक सहकार्यस्य भारत स्वीडिश संयुक्त आयोगस्य एकविंशतितम सत्रस्य सः अध्यक्षतां विहितवान्। FIH हॉकी प्रो लीग इत्यत्र अर्जेंटीना दलेन भारतीय पुरुष दलं पराजितम्। भारतम् अंक तालिकायां पंचमे स्थाने वर्तते। धन्यवादाः।
श्रोतारः, अधुना समागतः ज्ञान विज्ञान प्रभागः, यत्र केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिना प्रोफेसर श्रीनिवास वरखेड़ी महोदयेन सह निधिः झा इत्यनया साधितः साक्षात्कारः प्रस्तूयते।
प्रियाः श्रोतारः, अभिवादये। अद्य अस्माभिः साकं ज्ञान विज्ञान प्रभागे वेविद्यन्ते केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतयः प्रोफेसर श्रीनिवास वरखेड़ी महाभागाः। देश देशान्तरेषु प्रख्यात संस्कृत धुरिणः, यैः संस्कृत संप्रक्तं शैक्षणिकं प्रशासनिकं च शिखरासनं समानरीत्या स्पृष्टं स्यात्। नूनमेव मेधाविनं ओजस्विनं प्रौद्योगिक क्षेत्र पटुं संस्कृताय सर्वत्र सन्ततं संलग्नं च श्रीनिवास वरखेड़ी नामानं विशिष्ट पुरुषं नौमि। महोदय, भवताम् आकाशवाण्यां प्रणति पुरस्सरम् अहं निधिझाः स्वागतं व्याचष्टे।
नमस्करोमि सर्वान् श्रोतॄन् भवतीं च अभिवादये।
महोदयः, प्रथमः तावत् प्रश्नः, उदात्त गुणाकरः केन्द्रीय संस्कृत विश्वविद्यालयः ज्ञान परम्परायाः नवाचारस्य च संवाहकः इति निश्चप्रचम्। बी ए एल एल बी, बी ए सिविल सर्विसेस् इत्यादयः पाठ्यक्रमाः अवश्यं बालान् सुपन्थाः दर्शयन्ति, परं किमेते बालाः आधुनिक महाविद्यालये अधीत छात्रैः सह स्पर्धितुं क्षमेरन्?
अयं विनूतनः प्रश्नः। केन्द्रीयसंस्कृतविश्वविद्यालयः अधुना एतैः विनूतनैः बहुविषयकैः पाठ्यक्रमैः बहुविषयको विश्वविद्यालयः सञ्जातः। शनैः शनैः संस्कृतविश्वविद्यालयः अपि नानाक्षेत्रेषु छात्रान् निर्माति। प्रसङ्गेऽस्मिन् एते छात्राः इत्यादिक्षेत्रेषु प्रविष्टाः किं तैस्सह स्पर्धितुम् अर्हन्ति इति भवत्याः प्रश्नः। मन्ये तैस्सह न केवलं स्पर्धन्ते, अपि तु तेषाम् अपेक्षया उत्तमं कार्यं ते कर्तुं प्रभवन्ति। किमर्थम्? आगामिषु दिनेषु विकसितभारतस्य प्रसङ्गे भारतीयविद्यायाः ज्ञानमपि मुख्यं भवति तत्तत्क्षेत्रेषु। एते न केवलं विधिज्ञाः भवन्ति, अपि तु विधिविषये भारतीयमूलविचारमपि ते जानन्ति, अतः एतेषां स्थानं भिन्नं भवति। आधुनिकाः छात्राः भिन्नं स्थानं प्राप्नुवन्ति, भिन्नां दृष्टिं प्राप्नुवन्ति। एते छात्राः संस्कृतज्ञाः छात्राः ये भारतीयां दृष्टिं प्राप्नुवन्ति, एतेषां कार्यमपि भिन्नं भवति, अतः अतिशेते एते तावत् अन्येभ्यः अतिशेरते इत्यहं मन्ये। एते स्नातकाः अग्रे नानाक्षेत्रेषु भारतीयदृष्ट्या शोधकार्यं कर्तुम् अथवा नानाक्षेत्रेषु भारतीयां दृष्टिं स्वीकृत्य अग्रे विषयान् निरूपयितुं च समर्थाः भवन्ति। यथा एते तत्र समर्थाः, अन्ये केऽपि न भवन्ति। अतः एतेषां वैशिष्ट्यमनुरुध्य समाजे एतेषां विशिष्टं स्थानं भवति इत्यतः एते अन्येभ्यः अतिशेरते इति अहं मन्ये।
एवं महोदय, बहु समीचीनम्। भारतीयभाषापुस्तकपरियोजनायाः माध्यमेन विज्ञानगणितादि विषयाः संस्कृतभाषायाम् अनुदिश्यन्ते। पाठकाः के सन्ति? यतोहि प्रायः सर्वे अपि स्वमातृभाषायाम् अथवा आङ्ग्लभाषायामेव पठन्ति, तर्हि ये अधिकारिणः सन्ति ते के?
उत्तमः प्रश्नः। संस्कृतभाषायां नूतनज्ञानम् अपि अनुवर्तव्यं विद्यते। भाषायाः विकासः नूतनज्ञानस्य संस्पर्शेनैव भवति। कस्मिंश्चित् कालखण्डे आङ्ग्लभाषायां भारतीयाः विद्याः सामग्र्यः नासन्। के ते पाठकाः आसन्? सामग्री निर्मिता, पाठकाः निर्मिताः। अधुनापि भारतीयभाषाक्षेत्रे पाठकाः न सन्ति इति हेतोः यदि सामग्री न निर्मीयते, सामग्री नास्ति इति हेतोः पाठकाः अपि न भवन्ति, अतः सामग्री निर्मीयतां पाठकाः उत्पत्स्यन्ते। अतः सामग्रीनिर्माणं पाठकाधीनं नास्ति, पाठकाः सामग्र्यधीनाः सन्ति। यस्मिन् क्षेत्रे यस्यां भाषायां सामग्री वर्तते तत्र कोऽपि पाठकः उपलभ्यते, पाठकाः निर्वास्यन्ते। अतः मन्ये संस्कृतक्षेत्रे अधुना बहवः पाठकाः सन्ति ये सम्भाषणमुखेन संस्कृतं प्रविश्य स्वस्वक्षेत्रे स्वस्वविषयेषु संस्कृतमाध्यमेन सामग्रीं पठितुम् इच्छन्ति, परन्तु सामग्र्यभावात् ते पाठकाः न जाताः। परन्तु इदानीं सामग्री उपलभ्यते चेत् अवश्यं ते पाठकाः सज्जा भवन्ति, संस्कृतेनैव पठितुम् इच्छन्ति इति मम विश्वासः। वस्तुतस्तु अधुना भारतसर्वकारेण प्रत्येकं भारतीयभाषायां पठ्यानां सामग्रीणां निर्माणाय महान् प्रयासः विधीयमानः अस्ति। भारतीयभाषासु यदि ग्रन्थाः अनुवक्तव्याः, अनुवादितव्याः, पाठ्यसामग्री निर्माणं कर्तव्यं, तर्हि संस्कृतम् अनाश्रित्य वयं कर्तुं न शक्नुमः। किमर्थं गुजरातीतः मराठीभाषायां यदि अनुवादः कर्तव्यः, संस्कृतं माध्यमरूपेण कार्यं कर्तुं प्रभवति। ये शब्दाः संस्कृतमयाः भवन्ति ते मराठीभाषिकैः अपि ज्ञातुं शक्यन्ते, एवमेव अन्यासु भाषासु। अतः संस्कृतं न केवलं सामग्रीनिर्माणाय अपि तु अन्यभाषासु सामग्रीनिर्माणाय अपि संस्कृतम् अपेक्षितम्। एकवारं संस्कृतं मुखेन यदि अन्यासु भाषासु अनुवादः प्रचलति तर्हि सः अनुवादः प्रतिष्ठितः भवति, अन्यभाषिकाः अपि पाठकास्तु सन्ति एव, अतः ते पाठकाः भविष्यन्ति। अतः संस्कृते पाठकनिर्माणमेकं, संस्कृतद्वारा सर्वासु भारतीयभाषासु पाठकनिर्माणम् अपरम्। एतदपि अस्माभिः कर्तुं
सत्यं
लेट् कृत्वा स्थापयतु।
आदौ पठनं तदनु पाठनं सम्प्रति शासनमिति धीमतां तत्र भवतां कालः अद्यावधि सारस्वत् सपर्यायामेव निष्क्रान्तः सुविदितमेव अग्रिमदिनान्यपि संस्कृताय एवेति, तद्विहाय अन्या कापि वार्ता अथवा आलोचनानि विद्यन्ते किम्?
सम्यगेव, अहम् अद्य प्रशासने वर्ते, शासकस्य मे स्वधर्मो न निर्गतः, पठनं पाठनञ्चेति तदुभयमपि अधुनापि अनुवर्तितुम् इच्छामि, अनुवर्तयामि च यथावकाशं। परन्तु शासनमपि कश्चित् अध्यापकस्य जीवने एकम् अवश्यं भावि अङ्गं भवति, यतः गृहे यथायथं कश्चन पुत्रः भ्राता भवति, भ्राता पिता भवति, तदानीं शासनं गृहेपि करोति, एवं परिवारेपि, समाजेपि, विद्यालयेपि। एतत् सहजधर्मः, परन्तु निवृत्तिकालः अपि सहजः। पठनं पाठनं यः करोति निवृत्त्यनन्तरं पठनं पाठनं करोत्येव, शासनं तात्कालिकं, पठनं पाठनम् इत्यादिकं शाश्वतम् इत्यहं मन्ये। परन्तु मम मनसि अन्यापि काचित् इच्छा वर्तते। अहं भारतस्य नानाराज्येषु सेवाम् अकरवम्, नानास्थानेषु सेवाम् अकरवम्, इदानीं भारतं द्रष्टुमिच्छामि। भारतस्य कोणे कोणे सामान्यजनानां जीवनम् अनुभवितुमिच्छामि। मम मनसि काचित् महती इच्छा वर्तते प्रतिराज्यं, प्रतिजिल्ला प्रदेशं, प्रतिग्रामं गत्वा भारतं पश्यामि। कदाचित् जीवने एतद् भाग्यं विधिलिखितं स्यात्, तर्हि अहं भारतयात्राम् अतिगहनतया कर्तुम् इच्छामि। एतत् मम कश्चन स्वप्नः।
बहु समीचीनं, भवन्तः स्वकीयम् अमूल्यमपि नैजं समयं कल्पितवन्तः, एतदर्थं धन्यता वचांसि आविष्करोमि।
निधि झा महोदये, आकाशवाण्याः श्रोतृभिः सह संवादं कर्तुं मम कश्चन अवसरः प्राप्तः, अतः भवत्यै अहं धन्यवादम् आविष्करोमि। केन्द्रीयसंस्कृतविश्वविद्यालयस्य पक्षतश्च आकाशवाणी श्रोतारः अभिनन्द्यन्ते, धन्यवादः।
धन्यवादः।
श्रुतः अभिः ज्ञानप्रदः साक्षात्कारः। प्रियाः बान्धवाः, अशेषे हि भारते संस्कृतभाषाम् अवलम्ब्य भूरिशः कार्यक्रमाः आयोज्यन्ते, तेषां कार्यक्रमाणां विवरणं प्रस्तौति सुषमा कुमारी।
केन्द्रीय संस्कृत विश्वविद्यालये नवदिल्ल्यां परिसरेषु सम्बद्धता प्राप्त महाविद्यालयेषु च सञ्चालित स्नातक स्तरीय पाठ्यक्रमेषु परिसर स्तरीय प्रवेश परीक्षा माध्यमेन स्नातक स्तरीय पाठ्यक्रमाणां कृते द्वितीय चरणीय प्रवेश पंजीकरण प्रक्रिया प्रारब्धा। संपर्कार्थं विश्वविद्यालयस्य वेबसाइट http://samskrut.nic.in इत्यस्य अवलोकनं कर्तुं शक्यन्ते। प्रवेश हेतु सहायतार्थं महाविद्यालयीय प्रवेश प्रभारीं संपर्कं कर्तुं शक्यते। केन्द्रीय संस्कृत विश्वविद्यालयेन श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयेन 8 दिनांकतः 10 दिनांकं यावत् उत्कर्ष महोत्सवः आमानितः। कविकुलगुरुः कालिदास संस्कृत विश्वविद्यालये सामाजिक वन विभागस्य सहयोगेन वृक्षारोपणं कृतम्। भारतीय ज्ञान परम्परायाः सम्प्रसारणे गणित विज्ञानादीनां विषय विशेषाणां योगदानं राष्ट्रीय शिक्षा नीतेः प्रतिदेवनारूपं विषयक शोधलेखानाम् आविष्करणं जातम्।
अस्तु तावत् बालाः भवतां कृतेऽपि कथम् अस्माभिः विस्मर्यते बालवल्लरी भागः अद्य भगवता जगन्नाथेन सम्बद्धां कथां श्रावयति अस्मदीया सहयोगिनी साधना शर्मा।
बालाः अद्य अहं जगन्नाथस्य एकां कथां श्रावयामि। एकदा भगवान् श्रीकृष्णः निद्रायां राधे नाम उच्चारितवान्। राज्ञः अनुभवन्ति स्म यत् ताः भगवतः सेवां कुर्वन्ति, परन्तु भगवान् राधाम् एव स्मरति। रुक्मिण्यादयः राज्ञः रोहिणीं राधाकृष्णयोः ब्रजलीलाः कथयितुम् अनुरोधं कृतवत्यः। माता सहमता जाता, परन्तु श्रीकृष्णबलरामयोः संज्ञाने न भवेत्। अतः सुभद्रायै आदेशः दत्तः यत् श्रीकृष्णः भवतु बलरामो वा भवतु अन्तः न आगच्छेताम्। मातां कथां वदति स्म। द्वारे सुभद्रा स्थापिता आसीत्। किञ्चित् कालानन्तरं श्रीकृष्णः बलरामश्च तत्र प्राप्तवन्तौ। सुभद्रायाः अवरोधे सति भगवान् श्रीकृष्णः सूक्ष्मशक्त्या मात्रा वर्णिताः ब्रजलीलाः हर्षेण श्रोतुम् आरब्धवान्। बलरामः अपि कथायाः आनन्दं प्राप्तुम् आरब्धवान्, तथैव सुभद्रा। कथां श्रुत्वा तेषां हृदयेषु ब्रजप्रेमस्य अद्भुता भावना उत्पन्ना। तस्मिन् भावे तेषां हस्तयोः पादयोः च संकोचः अभवत्। त्रयः अपि कथायाम् एतावन्तः मग्नाः आसन् यत् ते प्रतिमावत् दृश्यन्ते स्म। सुदर्शनः अपि दीर्घरूपं धारितवान्। तस्मिन्नेव काले मुनिनारदः तत्र प्राप्य ईश्वरस्य एतद् रूपं दृष्ट्वा आश्चर्यचकितः भूत्वा तं पश्यति। तदा नारदः प्रणामं कृत्वा भगवन्तं श्रीकृष्णम् अवदत् यत् हे भगवन्, अद्य मया दृष्टं रूपं भवतः भक्तैः पृथिव्यां चिरकालं यावत् दृश्येत इति इच्छामि। भगवान् श्रीकृष्णः नारदस्य वचनेन प्रसन्नः भूत्वा अवदत् यत् कलियुगे अहं नीलाचलक्षेत्रे एवं रूपेण प्रकटयिष्यामि। इत्थं पूर्यां जगन्नाथस्य सुभद्रायाः बलभद्रस्य च प्रतिमा स्थापितः। तर्हि बालाः वदतु, जयतु कृष्णः, जयतु जगन्नाथः।
प्रियाः बान्धवाः, एकं भारतं श्रेष्ठं भारतम् इति अनुभागं स्वीकृत्य आगतः सुरेश चन्द्र शर्मा, यो हि भाषा निबद्धानि भिन्नानि वाक्यानि प्रस्तौति।
प्रथमं वाक्यम् अस्ति, भवान् कः अस्ति। हिंदी भाषायां आप कौन है, मारवाड़ी भाषा में थे कुण छो। द्वितीयं वाक्यम् अस्ति, भवतः नाम किम्। हिंदी भाषा में आपका नाम क्या है, मारवाड़ी भाषा में था को नाम काई छे। तृतीयं वाक्यम् अस्ति, भवतः पितुः नाम किम्। हिंदी भाषा में आपके पिताजी का नाम क्या है, मारवाड़ी भाषा में था को बापू को नाम काई छे। चतुर्थं वाक्यम् अस्ति, भवतः मातुः नाम किम्। हिंदी भाषा में आपकी माताजी का नाम क्या है, मारवाड़ी भाषा में था कि माताजी को नाम काइचे। धन्यवादाः।
प्रियाः श्रोतारः, भवतां प्रतिक्रियाः अस्मान् कार्यक्रमे अभिनवताम् आनेतुं प्रेरयन्ति। अतः निवेदयामि यत् भवन्तः आकाशवाण्या प्रसार्यमाणानां संस्कृतकार्यक्रमाणां विषये निजप्रतिक्रियाः nsdsanskrit@gmail.com इत्यस्मिन् ईमेल संकेते प्रेषयितुं शक्नुवन्ति। अधुना समागतास्ति कार्यक्रमस्य समापनवेला। आगामिनि रविवासरे अस्मिन्नेव समये पुनः एकदा नवीनम् अंकम् आदाय समुपस्थिताः भविष्यामो वयम्। तावत्पर्यन्तं नमो नमः।